सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सुधा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरम्।
धन्यवादः। अस्तु, गतसप्ताहे किं पाठं पठितवन्तः? अत्र तव्यत् अनीय प्रत्ययस्य विषये पठितवन्तः इति चिन्तयामि। तव्यत् अनीय विद्यर्थे भवति, कर्मणि प्रयोगे विद्यर्थे तव्यत् अनीय प्रत्ययोः प्रयोगः भवति, कर्तरिप्रयोगे विधिलिङ्ग् भवति। कर्तरिप्रयोगे विधिलिङ्ग्
सदा एवं भवति भगिनी, कर्तरिप्रयोगे विधिलिङ्ग् भवति, कर्मणि प्रयोगे
न कर्तरिप्रयोगे विद्यर्थे विधिलिङ्ग् प्रयोगः भवति। कुत्रचित् लोट् लकारस्य प्रयोगः अपि कर्तुं शक्यते, किन्तु गच्छता कालेन तत्र यदि परिवर्तनम् इष्यते, तत्र इदानीम् अहं वक्ष्यामि एकं कर्मणि प्रयोगे तत्र तव्यतनीयरूपयुज्य एकं वाक्यं वदामि, तस्य परिवर्तनं कुर्वन्तु कर्तरिप्रयोगे इति वक्ष्यामि चेत् तत्र विधिलिङ्ग्लकारम् उपयुज्य भवेत् तत्र परिवर्तनं कर्तरिप्रयोगे।
विधिलिङ्ग् विधिलिङ्ग् एवं लोट् मध्ये डिफ्रेन्स् किं भगिनि?
किं तत्र तु लोट् लकारः एव भिन्नः, लोट् लकारः अत्र विधि लिङ्ग् लकारः, लिङ्ग् लकारः
प्रयोगं भगिनि। फार् एक्साम्पल् इफ् ऐ वाण्ट् टु से करणीयम्, आल् दिस् कम्स् अण्डर् करणीयम् अण्ड् कर्तव्यम्, आल् दीस् भूयात्, आल् दीस् कम्स् अण्डर् विधि लिङ्ग् रैट्? भूयात्
न करणीयं कर्तव्यं तु विधिलिङ्ग् न, तत्र विद्यार्थे प्रयोगः विद्यर्थे, किन्तु तत्र प्रत्ययाः भिन्नाः तत्र, परन्तु अत्र लिङ्ग् लकारः इति वदामः चेत् तत्र लकारः एव भवति। दीस् आर् आल् कृदन्तपदम्, सो दीस् कृदन्तपदं स्तव्यतनीयर् प्रत्यय दे विल् हाव् आल् द विभक्ति फार्म्स्, but lakara they will not have vibhakti forms, they will have only the madhyama prathama purusha madhyama purusha uttama purushah iti tatra nava rupani bhavanti tesham, kintu ete tu krudanta padani iti vadamah. Kimartham ityukte krut pratyayah bhavanti tatra binna 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 pratyayah bhavanti dhatuna sah etesham तत्र प्रयोगं कृत्वा तत्र योजयामः चेत् तत्र एकं पदं लभ्यते, तस्य पदस्य सर्वाणि विभक्तिरूपाणि भवन्ति, प्रयोगाः अपि प्रत्येकस्य प्रयोगः अपि भिन्नः भवति। इदानीं पश्यतु तवतु प्रत्ययः, तत्र धातुना सह तवतु प्रत्ययं योजयामः चेत् तत्र पठितवत् इति शब्दः लभ्यते, पठितवान् पुल्लिङ्गे पठितवान् पठितवन्तौ पठितवन्तः इति रूपाणि भवन्ति, स्त्रीलिङ्गे पठितवती पठितवत्यौ पठितवत्यः इति, अनन्तरं नपुंसकलिङ्गे पठितवत् इत्येव भवति रूपं तत्र। एवं तेषां वाक्येषु तु भिन्नभिन्न प्रयोगाः अपि एतेषाम् उपयोगः भिन्नः भवति, वाक्येषु वाक्यरचनायां उपयोगः अपि भिन्नः भवति, प्रयोगः अपि भिन्नः भवति। एवम् अग्रे तवतु प्रत्ययः, त्वा प्रत्ययः अस्ति, ल्यपु प्रत्यय, त्वा प्रत्यय एव तत्र ल्यप् इति प्रत्ययः, किन्तु यदा उपसर्गः भवति तत्र त्वा प्रत्ययस्य ल्यप् भवति तत्र, तस्य उपयोगः वाक्येषु उपयोगः तु भिन्नः। एवं तुमुन् प्रत्ययः, एते सर्वे ऋतुप्रत्ययाः भवन्ति, किन्तु तुमुनन्तप्रत्ययाः त्वान्तप्रत्ययाः तु अव्ययानि भवन्ति, तेषां तु विभक्तिरूपाणि न भवन्ति, किन्तु तव्यतनीयर् इति वदामः चेत् एतेषां वाक्येषु तस्य प्रयोगः वा उपयोगः वा भिन्नं भवति तत्र, भिन्नं भिन्नम्।
prayogam bhagini, I have a doubt in prayogam. If I want to say, I should do this, I should read well.
Maya karaniyam. Maya pataniyam.
Aniyar pratyaya here.
Tavyar ati, tavyar atava aniyar. Arthahatu samanaha.
So vidiling also comes in the same context, right? Vidiling also.
Karmani prayoge bhavati maya iti tatra. Maya maya pataniyam atava maya patitavyam. इति भवति तत्र कर्तरि प्रयोगे वक्तुम् इच्छति चेत् इदानीं पुस्तकम् अस्ति मया पुस्तकं पठनीयम् अथवा मया पुस्तकं पठितव्यम् इति वाक्यं तव्य तथवा अनीयर् प्रत्ययेन कर्तरि प्रयोगे वक्तुम् इच्छति चेत् तत्र अहम् इति भवेत् पठेयम् अहं पुस्तकं पठेयम् इति भवति तस्मिन् See, when it is kartari prayoga, karma padam lingam anushrutya tatra pustakam pataniyam patitavyam, Gita pataniya patitavya, you have to focus on all those things. When you are using kartari prayoga and vidiling lakaraha, then you must focus on purushaha and the kriya padam changes according to that. There it is aham pustakam तत्र अहं पुस्तकं पठेयम् सो ऐ शुड् रीड् द बुक् शुड् बि रेड् बै मी कर्मणि प्रयोगे ऐ शुड् रीड् द बुक् कर्तरि प्रयोगे दट्स् आल् ऐदर् दिस् आर् दट् यू शुड् बि वेन् यू आर् यूसिङ्ग् विदिलिङ्ग् लकार यू शुड् बि तरौ वित् आल् द लकार फार्म्स्
So it will also come in second Madhyama Purusha context, right? Tvaya Pustakam.
Tvaya Pustakam ityatra kimartam karmani prayoge. Tvaya ityatra tu kartrupadam tvaya iti asti. Pustakam itti tadeva karmapadam anushrutya karmani prayoge kriyapadam bhavati. Karmani prayoge kaha niyamaha.
Okay.
Tvaya Pustakam pataniyam eva. मया पुस्तकं पठनीयं त्वया पुस्तकं पठनीयं तेन पुस्तकं पठनीयं सर्वत्र किन्तु कर्तरि प्रयोगे यदा परिवर्तनं करोति तत्र भिन्नभिन्नरूपाणि भवति कथं भवति तत्र तेन त्वं भवान् इति उपयुज्य भवान् पुस्तकं पठेत् प्रथमपुरुष एकवचनम्
So this also becomes lot, right? Lot order.
Lot, na. Patet binna, patatu iti bhavati.
Tvam pustakam patatu.
Bhavan pustakam patatu.
Bhavan pustakam patatu. So the context becomes same, right? For usage of lot and...
Tadeva vashkhyamiya, abhyasa pustakasya tatra arambasthare vayam yetan sarvan lakaran na patamaha patayamaha cha. Kimartam... इदानीमेव भ्रमः जायते इदानीमेव भवन्तः अत्यन्तं तत्र अत्यन्तः भ्रमः एव जायते अनुभूयते भवद्भिः आरम्भस्तरे एव यदा वयम् अभ्यासपुस्तकस्तरे एव एतान् सर्वान् लकारान् पाठयामः चेत् कोऽपि न पठति एव संस्कृतम् तस्मात् कारणात् एव तत्र संस्कृतभारत्याः पाठनशैली अस्ति तत्र किञ्चित् तत्र सोपानक्रमेण एव अध्ययनं तत्र सुभाषितमपि अस्ति खलु सूक्तिः अस्ति क्षणशः कणशः शैव विद्याम् अर्थं च साधयेत् वेदर् इट् इस् नालेज् आर् वेल्त् इट् शुड् बि कणशः वेन् इट् कम्स् टु वेल्त् It should be very little, by pecks only you have to gather when it comes to wealth. When it comes to vidya, kshanasaha, every moment you have to learn something.
Something,
okay. So, little by that is also every moment, slowly you have to learn. Not, see now what everybody is trying to do is, before even they start joining LKG, UKG in Sanskritam, They want to go to PhD level. That is the problem with everybody. Immediately they jump to Veda and Upanishad and all those things. The big words they want to speak about. That that I do not want to comment on all those things, but it is going to take time. Anything, any subject, whatever, even if you go to work, you are trained for that. You study to become an engineer for 4 years. Before that, you do 12 years of schooling. After that, you do 4 years of engineering. And then you go and take training as the probation. In that also, you have probationary period. And immediately, so when you come out of college, do they give you a big position at the office? No. They take you as a trainee only. Right? So everything goes step by step only. Nobody, the moment after you get the degree and come out of college, nobody is going to give you the board of the director and MD and all those positions. Nobody is going to give. So you have to join as an ordinary clerk. From clerical job, you will go and then get promoted to manager. Right? So everything is going to take time. So same thing here, but so at work, because we are getting paid, so we pay more attention and we spend time and we try to learn stuff and then work for that, right? So same way here also. We all of us are just beginners only. Why I am little bit ahead of you? Because I am putting more time. That's all. Not after coming into the class every time if I keep saying whatever the question is asked by the student, if I am going to say I will verify and tell you, I will verify and tell you for each and every question. That's not going to help. So I have to sit and prepare before coming to the class. So what happens when I do it, as I am teaching one or more than one batch, repeatedly I study, so automatically it gets registered, that's all. Repeated practice and the usage and application. So just to read a simple shloka and understand, do anvayakrama and understand that you need to learn Sanskritam at least for 4 to 5 years. Simple Anushtup Chanda Shloka. Ramayanam. You should start from Ramayana and Mahabharata. The shlokas are very in a simple Saralam language. Tatra. So from there, and it is also a story that we already know. Itikasam. So you will be able to relate and learn it quickly. So simple shloka should be taken, and then from there you should start. Oh, this padam. This is what you should try to relate. That is how you should do. So by finishing Abhyasa Pustakam itself, you should be trying to do the Swantam, Tumunantam. Oh, everything is taught in the Abhyasa Pustakam level itself. Basic things. So you should start doing that. So by this time you should be able to. You don't have to wait for all this thing. By this time you should be able to, if I say that simple shlokam, so in that what are all the padam, what vibhakti, pratipadikam kim, tatra sandhi patanam tu na kritam asmabhihi. Kintu atra sarala shlokaha santi chetu tatra adhikataya tatra visarga sandhihi eva drishyate adhikataya. Visargasya sthane o iti bahutra drushyate. Tatra tasya kinchit uhamahe. Uhamapi kartum shakyate asmabhihi. Atra eta deva bhavitum arhati iti tadrusha patanam avashyakam. Tena eva labaha bhavati. Astu? Agre. Agrima patah asti shatruprityayantanam prayogaha. Punaha. Tatra binna 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 pratyayaha eva dhatuna saha punaha tatra shatru na kechana janaha shatru iti tatra uccharanam kurvanti doshaya tat shatru na shatru. Okay. Punaha shatru iti pratyayaha dhatuna saha yojayamaha chet पुनः भिन्नः शब्दः लभ्यते, तस्य उपयोगः वाक्येषु उपयोगः प्रयोगः तु भिन्नः। तत्र आङ्ग्लभाषायां किञ्चित् कण्टिन्यूस् फार्म् इति वदामः खलु, तदेव रीडिङ्ग्, द बाय् फेल् वैल् रन्निङ्ग्, तादृशप्रयोगः इदानीं भवति। सो लुक् अट् इट्, वेन् यु आड् डिफ्रेण्ट् प्रत्ययास् यूसेज् इट्सेल्फ् इस् डिफ्रेण्ट्, नाट् द सेम्. Only thing is, even in English, we have active voice, passive voice. And same thing here. So every language has its all the grammar concepts and everything. None of us learnt the English even at school. None of us learnt English thoroughly to that extent with all the in-depth grammar knowledge and everything. It was not taught that way, right? It was general active voice, passive voice, direct speech, indirect speech. All those things, that's all. So if you go into English literature, then you might find all these things with grammar concepts and all those things. And again, the English has changed. What it was during the Shakespearean time, what the English is now is totally different. But with Sanskritam, it is not the case. It's the same. Whether it is Paninian time or it is now, it is the same Sanskritam. Astu Shatru Pratyayantanam Prayogah. Astu Atra Ekam Sambhashanam Asti Tad Mastu Pratamam Jani Maha Tatra Shatru Pratyayasya Upayogah Atava Prayogah Kaha Katam Kriyate Iti Jani Maha. अग्रिमपुटे तत्र चित्राणि सन्ति, पठामः. नित्यानन्द महोदय, भवान् तत्र पठतु महोदय.
आं भगिनि, एतानि वाक्यानि पठत् जानीत च. कृष्ण धावन् अस्ति, धावन् अस्ति. अर्जुन नमन् पृच्छति,
अर्जुनः
अर्जुनः अर्जुनः नमन् पृच्छति. सरस्वती वीणां वादयन्ती गायति.
वादयन्ती दीर्घं वदतु, वादयन्ती इति ह्रस्वं मास्तु, वादयन्ती गायति. अग्रे क्रियापदं गायति इति अस्ति.
वादयन्ती गायति द्वयक्रियापदमस्ति, वादयन्ती
न क्रियापदं नास्ति, वादयन्ती इति तत्र शत्रुप्रत्ययः स्त्रीलिङ्गे.
क्षमितां भगिनि, भगिनि केन् ऐ आस्क् माय सिस्टर् टु जायिन् दिस् क्लास् नौ, इस् इट् ओके? आर् यु ओके?
आगच्छतु, आगच्छतु, चिन्ता नास्ति. पठतु महोदय.
कृष्णः पञ्चजन्यं दमन् अस्ति.
धमन् अस्ति. अत्र कानि कानि एतेषु वाक्येषु कानि कानि पदानि शत्रन्तपदम् इति वदामः? किं वदामः? शत्रन्तपदं वदामः, कृदन्तपदं, तत्र त्वान्तपदं, तुमुनन्तपदम् अथवा शब्दः, तुमुनन्तशब्दः, तुमुनन्तपदं, त्वान्तपदं, ल्यबन्तपदं, तव्यतनीय तत्र इति वदामः. अस्तु, एवम् अत्र शत्रन्तपदम् अत्र
वादयन्ति
धमन् श्रीलिङ्गे. तत्र प्रातिपदिकं किम् इति भवति? धावन् धावति इति क्रियापदमस्ति खलु, तत्र धा इति धातुः, तेन सह शत्रुप्रत्ययस्य योगेन तत्र धावत् प्रथमं धावत् इति प्रातिपदिकं सिद्ध्यते. प्रातिपदिकं धावत् इति भवति, तकारान्तशब्दः. तस्य प्रथमाविभक्तिरूपाणि धावन्, धावन्तौ, धावन्तः, भवान् शब्दवत् भवति. अनन्तरं द्वितीयाविभक्तिरूपं कथं भवति? नित्यानन्दमहोदय वक्तुं शक्नोति वा?
द्वितीयाविभक्ति
द्वितीया विभक्ति किं धावन्तम् धावन्तं धावन्तौ धावतः भवत् शब्दवत् भवति रूपाणि किन्तु तत्र भवत् शब्दस्य भवान् इति भवति किन्तु अत्र तादृशं न भवति पठत् इत्यस्य पठत् पठन् धावत् इत्यस्य धावन् इति भवति धावन् धावन्तौ धावन्तः धावन्तं धावन्तौ धावतः धावता धावद्भ्यां धावद्भिः अनन्तरं धावते धावद्भ्यां धावद्भ्यः धावतः धावद्भ्यां धावद्भ्यः अनन्तरं धावतः धावतोः धावतां धावति धावतोः धावत्सु इति रूपाणि भवन्ति अत्र अत्र पश्यन्ति चेत् कृष्णः धावन् अस्ति एवं बालकः पठन् निद्राति बालकः पठति बालकः निद्राति वयं पूर्वं स्वान्तं वा ल्यबन्तं वा तुमुनन्तं वा यदा वयं पठितवन्तः बालकः पठति बालकः क्रीडति बालकः पठित्वा क्रीडति तत्र अर्थः कः बालकः पठित्वा क्रीडति इति वाक्यद्वयस्य योजनं भवति तत्र अत्र अर्थः भिन्नः इदानीं तदैव वाक्यं स्वीकुर्मः वयं बालकः पठति बालकः तत्र क्रीडति अथवा इति तदेव स्वीकरोतु अथवा निद्राति बालकः पठति बालकः निद्राति बालकः पठन् निद्राति अत्र अर्थः कः तदेव भवन्तः मा कुर्वन्तु वर्गे छात्राः शृण्वन्तः छात्राः शृण्वन्तः निद्रां कुर्वन्ति मास्तु तादृशम् अस्तु तत्र उपयोगः एव अर्थः एव भिन्नः भवति धातुः एकः एव पट् इति धातुः किन्तु भिन्नभिन्नप्रत्ययानां योजनेन अर्थः अपि भिन्नभिन्नः भवति अस्तु पठित्वा निद्राति यदा अहं वदामि छात्रः पठित्वा निद्राति तत्र अर्थः भिन्नः आफ्टर् स्टडिङ्ग् हि स्लीप्स् इदानीं छात्रः पठन् निद्राति अर्थः भिन्नः इदानीं छात्रः पठितुं विद्यालयं गच्छति तत्र तुमुन् प्रत्ययः तत्र क्रियायाः आरम्भः एव भवति पठितुम् इति क्रिया समा न समाप्ता आरम्भः पठितुम् इति भवति क्रिया इदानीमेव आरब्धा पठितुं विद्यालयं गच्छति इति अनन्तरं बालकेन किं पुस्तकं पठितव्यम् इत्यत्र भिन्नः बालकः पुस्तकं पठितवान् इत्यत्र भिन्नः अर्थः भूतकालार्थे भवति किन्तु धातुः पट् इति धातुः भिन्नभिन्नप्रत्ययाः वाक्येषु अपि तेषाम् उपयोगः अपि भिन्नः अस्तु अत्र एवं पुल्लिङ्गे धावन् धावन्तौ इति भवति स्त्रीलिङ्गे दीर्घ ईकारान्तवत् भवति धावन्ती तस्मात् कारणात् एव अहम् उक्तवती तत्र दीर्घ ईकारस्य उच्चारणं सम्यक् कुर्वन्तु किमर्थम् उदाहरणमेव पश्यन्तु सरस्वती वादयन्ती गायति गायति इत्यत्र ह्रस्व इकारः तत्र क्रियापदं तत् किन्तु गाय वादयन्ती किं कुर्वती गायति वादयन्ती गायति इति तत्र भवति वै प्लेयिङ्ग् वीणा शी सिङ्ग्स् इति अर्थः भवति तत्र वादयन्ती नदीवत् रूपाणि भवन्ति तत्र सर्वाणि रूपाणि वादयन्ती वादयन्त्यौ वादयन्त्यः वादयन्तीं वादयन्त्यौ वादयन्तीः नदीः इति द्वितीयाविभक्तिः बहुवचनं एवं रूपाणि भवन्ति अस्तु एवं नपुंसकलिङ्गे तत्र गच्छत् इदानीं गच्छत् इति प्रातिपदिकं गम् इति धातुः शत्रुप्रत्ययस्य योजनेन तत्र गच्छत् इति प्रातिपदिकं लभ्यते गच्छत् इत्येव भवति नपुंसकलिङ्गप्रथमाविभक्तिरूपम् अत्र शत्रुप्रत्ययः परस्मैपदिधातूना सहितम् एव प्रयोगः एतेषां प्रयोगः भवति आत्मनेपदिधातूनां कृते भिन्नः प्रत्ययः अग्रिमपाठे पठामः इदानीं केवलं शत्रुप्रत्ययस्य योजनं कुत्र भवति केवलं परस्मैपदिधातूना सह एव भवति अस्तु अत्र नपुंसकलिङ्गे रूपाणि कथं भवति गच्छत् गच्छति गच्छन्ति तत्र पश्यन्तु गच्छन्ति इति प्रथमपुरुष बहुवचनरूपवत् अस्ति अत्र गच्छन्ति इति नपुंसकलिङ्गे शत्रन्तरूपं भवति सो वन् वेन् यु गो टु दट् वेरि है लेवल् यु शुड् बि एबल् टु ऐडेण्टिफै ओ दिस् इस् नाट् अ क्रियापदं दिस् इस् क्रियासूचकपदं दिस् इस् अ शत्रन्तपदम् with reference to context you should be able to identify that is very far away don't think about it first now learn the forms tatra napunsakalinga rupani pullinga sarvani rupani janantu samyak tatra jagat shabdavat bhavati jagat iti napunsakalinge asti kulu takaraanta napunsakalinga shabdah jagat jagati jaganti iti rupani bhavanti अत्र केवलं प्रथमाविभक्तिः द्वितीयाविभक्तिः एतयोः रूपाणि एव समानानि तृतीयाविभक्तिम् आरभ्य तत्र पुल्लिङ्गवत्येव सर्वाणि रूपाणि भवन्ति अस्तु अग्रे इदानीं सौम्या भगिनी अनन्तरं यानं
गच्छति यानं धूमं वमति गच्छत् यानं धूमं
कीदृशं यानं गच्छत्
यानं गच्छति यानं धूमं वमति गच्छत् यानं धूमं वमति
द मूविङ्ग् वेहिकल् इति अर्थः
वमति इत्युक्ते
गिविङ्ग् औट् इति अर्थः वमति जनरलि सर्पः विषं वमति
सर्पः विषम् ओके
तादृशं तु वामिट् इति अर्थः भवति साधारणतया परन्तु तत्र साक्षात् तादृश अर्थं स्वीकर्तुं न शक्यते अग्रे सुकन्या भगिनी अग्रे वाक्यं पठतु सौम्या भगिनी भवति प्रथमं वाक्यं पठतु
छात्रः पाठं लिखति चिन्तयति
तत्रैव दत्तमस्ति
छात्रः पाठं लिखन् चिन्तयति
लिखन्
क्रीडन् लिखन् सर्वे
इदानीं छात्रद्वयम् अस्ति इति चिन्तयामः अत्र छात्रौ पाठं लिखतः चिन्तयतः तस्य कथं भवति
छात्रौ पाठं लिखन्
लिखन्तौ चिन्तयतः तत्र क्रियापदं चिन्तयतः किन्तु लिखन्तौ चिन्तयतः बोत् द स्टूडेण्ट्स् वैल् रैटिङ्ग् दे थिङ्क् इति अर्थः भवति
लिखन्तौ चिन्तयतः
अग्रे सुकन्या भगिनी
बालकः क्रीडति मित्रम् आह्वयति बालकः क्रीडन् मित्रम् आह्वयति
क्रीडन् मित्रम् आह्वयति शान्ति भगिनी
भीमः प्रतिज्ञां स्मरति दुर्योधनं ताडयति भीमः प्रतिज्ञां स्मरन् दुर्योधनं ताडयति
स्मरन् while hitting him, that is while remembering his whatever pratignya he made, he hits Duryodhana iti artha. Agre Krishna Mahodaya.
वृद्धः मार्गं पश्यति गच्छति वृद्धः मार्गं पश्यन् गच्छति
मार्गं पश्यन् गच्छति इदानीम् एवमेव बालकः धावन् पतति शिशुः धावन् पतति पतित्वा किं करोति रोदिति एवं वाक्यानि रचयितुं शक्यते धावन् पतति पतित्वा रुदति अस्तु अग्रे पुनः विजिवैनी भवती अपि पठति वा सर्वे एकवारं पठितवन्तः वा शृणोतु चिन्ता नास्ति नित्यानन्द महोदय भवान् पठतु
वृद्धः मार्गं पश्यति
पञ्चमं वाक्यं
वाल्मीकिः स्नानाय गच्छति स्नानाय गच्छति क्रौञ्चो पश्यति वाल्मीकिः स्नानाय गच्छन् क्रौञ्चो पश्यति
क्रौञ्चौ इति द्विवचने तत्र क्रौञ्चौ मिथुनम् अस्ति खलु क्रौञ्चौ तदेव पश्यति स्नानाय स्नानम् इत्यस्य चतुर्थी विभक्तिः स्नानाय पठनं पठनाय स्नानार्थम् इति अर्थः भवति चतुर्थी विभक्तिम् उपयुज्य वक्तुम् इच्छामः चेत् स्नानाय तुमुनन्तम् उपयुज्य वक्तुम् इच्छामः चेत् स्नातुम् अर्थम् इति अन्ते उपयुज्य वक्तुम् इच्छामः चेत् स्नानार्थम् अर्थः तु समानः स्नानार्थं स्नानाय स्नातुं त्रयाणां पदानाम् अर्थः तु समानः किन्तु तत्र भिन्नभिन्नभिन्नरूपाणि तत्र स्नानम् इत्यत्र भिन्नः प्रत्ययः तत्र योजनेन एतादृश रूपं भवति ल्युट् इति कश्चन प्रत्ययः अस्ति पठनं स्नानं गमनम् इति नपुंसकलिङ्गरूपाणि भवन्ति अग्रे सुकन्या भगिनी सौम्या भगिनी
भगिनी श्रूयते वा
श्रूयते विजी भगिनी पठतु
ओके नमस्कारः सर्वेभ्यः ऐ एम सौम्या सिस्टर् ओके ऐ विल् ट्रै टु हेव् द बुक् प्रयत्नं
करोति पुस्तकं नास्ति वा भवत्याः समीपे
ओके ऐ विल् ट्रै मै ओन् सेण्टेन्स् ऐ वाण्ट् टु से मै डाटर् वैल् गोयिङ्ग् इन् द कार् शी इस् ईटिङ्ग् वैल् गोयिङ्ग् इन् द कार् मम पुत्री खादन् भोजनं खादन्
खादन्ती
कार्याने गच्छति
कार्याने गच्छति अथवा कार्यानं चालयति
कार्यानं चालयति
खादन्ती कार्यानं चालयति अस्तु अग्रे सौम्या भगिनी भवती वाक्यं पठतु अत्र
शिक्षकः लिखति पाठयति शिक्षकः लिखन् पाठयति
इदानीम् एतावत्पर्यन्तम् अत्र षष्ठवाक्यपर्यन्तम् अहं चिन्तयामि अत्र सर्वाणि वाक्यानि तत्र पुल्लिङ्गशत्रन्तरूपाणि शिक्षकः पर्यन्तम् अग्रे सप्तमवाक्यात् आरभ्य तत्र स्त्रीलिङ्गरूपाणि सन्ति अस्तु अग्रे सुकन्या भगिनी भवती पठतु गीतं गायति अग्रे शान्ति भगिनी
महिला वस्त्राणि क्षालयति भाषते महिला वस्त्राणि क्षालयन्ती भाषते
केवलं भाषते महिला वस्त्राणि क्षालयन्ती भाषते अम्बा पचन्ती तत्र किं करोति गायति पाकं कुर्वती गायति अग्रे पश्यामः तादृशरूपाणि भिन्नरूपाणि धातूनां कृते अस्तु कृष्णन् महोदय अग्रे
विमानं गच्छति शब्दं करोति विमानं गच्छत् शब्दं करोति
अत्र किमर्थं गच्छति इति अस्ति नपुंसकलिङ्गे किमर्थं
जगत्
किमर्थं नपुंसकलिङ्गे गच्छत् इति अस्ति
विमानं
विमानं नपुंसकलिङ्गे वाहनं विमानम् इति तस्मात् गच्छत् इति अस्ति अत्र विमानं गच्छत् शब्दं करोति इति भवति दशमं वाक्यम् एवमेव यन्त्रं चलति कार्यं करोति एवमेव अत्रापि चलत् यन्त्रं चलत् कार्यं करोति रन्निङ्ग् इति अर्थः शब्दं करोति इत्यपि पूर्वतनवाक्यवत् यन्त्रं चलति शब्दं करोति यन्त्रं चलत् शब्दं करोति इत्यपि वक्तुं शक्यते अस्तु चलत् चलति चलन्ति इति रूपाणि भवन्ति अवधेयम् इति अग्रिमपुटे किञ्चित् दत्तम् अस्ति पश्यामः किम् इति अस्तु अग्रे नित्यान् महोदय भवान् पठतु
अवधेयम् एतेषु वाक्येषु स्थूलाक्षरे मुद्रितानि लिखन् चालयन्ति चलत् इत्यादीनि शत्रुप्रत्यान्ति प्रत्यान्तानि रूपाणि वर्तमानकालार्थे परस्मैपदी धातूनां शत्रुप्रत्यय भवति
तदेव उक्तवती परस्मैपदी धातूनां शत्रुप्रत्ययः आत्मनेपदी धातूनां तु अग्रिमपाठे पठामः शाणच् प्रत्ययः इति भवति अस्तु अग्रे पठतु महोदय
इत्यत्र अथ भाग अवशिष्यते
अवशिष्यते तत्र कार्याणि सन्ति तत्र कार्याणि सन्ति अनुबन्धलोपनम् इति वदामः प्रत्ययेषु तत्र आदौ यत् अक्षरमस्ति तस्य तत्र यद् यत् अक्षरमस्ति सर्वत्र इति न वक्तुं शक्यते डिपेण्ड्स् आन् वाट् अक्षरं देर् आर् सूत्रं फार् दि इलैट्स् सम् आफ् दि अक्षरं दे इलैट् बेस्ड् आन् सम् सूत्रम् अत्र ष इत्यस्य लोपः भवति एवमेव ऋ इत्यस्य लोपः भवति ष इत्यत्र अकारः अस्ति तृ इत्यत्र तित् अस्ति व्यञ्जनम् अत् अवशिष्यते लोपानन्तरं ऋकारशकारयोः लोपानन्तरम् अत् अवशिष्यते अस्तु लशक्व तद्दिते इति एकं सूत्रमस्ति तदनु शकारस्य लोपः भवति उपदेशे जनुनासिक इत् इति अन्यत् एकं सूत्रमस्ति तदनु ऋकारस्य लोपः भवति अवशिष्यते किम् अवशिष्यते अत् अवशिष्यते तेन किं सम्भवति इदानीं पट् योगः अत् किं भवति पठत् इति प्रातिपदिकम् अस्तु तदनन्तरं तत्र भिन्नभिन्नकार्याणि पुनः विभक्ति तत्र स्त्रीलिङ्गपुल्लिङ्गरूपाणि भवन्ति अस्तु अग्रे इदानीं पठतु शत्रुयोगं
शत्रुयोगात् शत्रुयोगात् शत्रन्तं प्रातिपदिकं सिद्ध्यति
तदेव उक्तवती यदा अहं पठनसमये वदामि एतत् पदं शत्रन्तम् इति वदामि किं तत् मा चिन्तयन्तु तत्र शत्रन्तम् इत्युक्ते तत्र शत्रुप्रत्ययः अस्ति अति शत्रन्तम् अग्रे अग्रे यदा गच्छेम एतादृश प्रयोगाः एव भवन्ति सर्वत्र अत्र प्रातिपदिकं शत्रु तत्र शत्रुप्रत्ययः अस्ति परस्मैपदी धातुः अस्ति इति तादृशं न पृथक् पृथक् न पठामः. शत्रन्तम् इत्युक्ते इट् इस् एन् इम्प्लैड् स्टेट्मेण्ट् द धातु इस् अ परस्मैपदि धातु एण्ड् दर् इस् अ शत्रुप्रत्ययः विच् हेस् बीन् एडेड् टु दट् परस्मैपदि धातु पीरियड् अस्तु.
विशेषणरूपेण शत्रन्तस्य प्रयोगः भवति अतः एतस्य रूपाणि त्रिषु लिङ्गेषु अपि भवन्ति
अपि भवन्ति. अस्तु इदानीम् अतः तत्र त्रिषु लिङ्गेषु रूपाणि केवलम् एकवचनरूपाणि प्रथमाविभक्तिः एकवचनरूपाणि सन्ति अस्तु. शत्रन्तप्रत्ययान्तस्य पुल्लिङ्गरूपाणि एवं भवन्ति. अत्र पश्यन्तु गच्छत् इति प्रातिपदिकं किन्तु यदा तृतीयाविभक्ति द्विवचनं बहुवचनं पश्यन्ति चेत् गच्छद्भ्यां तकारस्य दकारः भवति सन्धिकार्यं तत्र गच्छद्भ्यां गच्छद्भिः गच्छद्भ्यः इति दकारः सर्वत्र तकारस्य स्थाने दकारः भवति. अग्रे अग्रे यदा वयं सन्धिं पठामः तथा अस्माभिः ज्ञातुं शक्यते. एवं गच्छत्सु एतावत्परि तत्र गच्छत्सु इति प्रत्ययः सुप् इति सप्तमी बहुवचनप्रत्ययः तत्र सु अवशिष्यते. गच्छत् इति प्रातिपदिकं सु गच्छत्सु इति सप्तमी बहुवचनं. अत्र सुलभः भवति हलन्तशब्दवत्येव एतद् गच्छत् इति हलन्तशब्दः अन्तिमवर्णः तकारः तत्र व्यञ्जनम् अस्ति तस्मात् हलन्तशब्दः. हलन्तशब्दानां विभक्तिरूपाणि तु तत्र सुलभानि एव रूपाणि. गच्छत् योगः औ तत्र गच्छतौ तत्र किञ्चित् कार्यं भिन्नं रीत्या गच्छतौ इति भवति. गच्छत् योगः औ गच्छतौ अकारः भवति तत्र कार्याणि सन्ति मध्ये किमर्थं तकारः इति गच्छत् योगः औ इति भवति गच्छतौ. इत् योगः औ तौ तावदेव तत्र योजनं वर्णमेलनमेव सन्धिकार्यं किमपि नास्ति. गच्छत् योगः औ गच्छतौ अन्ते गच्छन्तः इत्यत्र किञ्चित् कार्यम् अस्ति. एवं द्वितीयाविभक्ति एकवचनस्य प्रत्ययः अम् इति भवति तस्मात् गच्छत् योगः अम् गच्छतम् इत् योगः अम् तम् इति भवति. तृतीयाविभक्ति एकवचनं आ इति प्रत्ययः गच्छत् योगः आ गच्छता इति रूपं सिद्ध्यते. चतुर्थी एकवचनप्रत्ययः ये तस्मात् गच्छते अस्तु. एवमेव ओः इ सप्तमी एकवचनं इ इति भवति प्रत्ययः इ इति भवति गच्छत् योगः इ गच्छति इति. I am not giving you the actual pratyaya of each and everything. It is, I am giving the final form of the pratyaya after all the anubandha lopanam is done. Okay? Otherwise, for example, tritiya vibhakti ekavachana pratyaya bhavati ta iti. So, tasya takarasya lopaha bhavati anantaram a avasishyate. So, that is what I am telling you now. अस्तु. एवमेव सप्तमी एकवचनविभक्तेः प्रत्ययः अस्ति नि इति भवति तस्य ञकारस्य लोपः भवति इ अवशिष्यते. सप्तमी एकवचन प्रत्ययः भवति इ इति भवति. गच्छत् योगः इ गच्छति इति भवति अस्तु. अनन्तरं गच्छन्तौ तदेव तद् वक्तुं विस्मृतवती. प्रथमाविभक्ति द्विवचने गच्छन्तौ इति नकारः अस्ति तत्र तत्र व्याकरणविषयाः तद् सूत्राणि सन्ति तदनुमागमः भवति तदनन्तरं गच्छन्तौ इति अन्तिमरूपं सिद्ध्यते अस्तु. गच्छन्त् इति भवति गच्छन्त् योगः औ इत्योगः औ तौ इति भवति अस्तु. एवं षष्ठी द्विवचन सप्तमी द्विवचनयोः प्रत्ययः भवति ओ इति भवति. गच्छत् योगः ओ ओस् इति भवति प्रत्ययः ओस् इति भवति. ओः इति गच्छतोः इति भवति. अस्तु. एवं रिक्तस्थानानि पूरयत इति अस्ति. तत्र प्रथमाविभक्तिरूपाणि सर्वाणि दत्तानि. द्वितीयाविभक्ति पुनः अग्रे सर्वे एकवारम् उक्तवन्तः वा? कृष्णन् महोदय भवान् वदतु, अस्याः पर्यायः शान्तिभगिन्याः वा? भवती पठतु शान्तिभगिनी.
कच्चन् कच्चन्तो
तद् अग्रे प्रथमः
अभ्यासः वदन्तौ वदन्तः वदन्तं वदन्तौ वदताः वदतः
वदतः
वदन्ता
वदन्ता न
गच्छत
कुत्र अस्ति? नकारः अस्ति वा तृतीयाविभक्तौ? वदत् योगः आ वदत
वदत वदद्भ्यां वदद्भिः
वदद्भिः. अस्तु अग्रे कृष्णन् महोदय भवान् अवशिष्टानि रूपाणि वदतु चतुर्थीविभक्तिमारभ्य.
वदते वदद्भ्यां वदद्भ्यः वदतः वदद्भ्यां वदद्भ्यः वदतः वदतोः वदतां वदति वदतोः वदत्सु.
वदति अत्र पश्यतु, वदति इति प्रथमपुरुष एकवचन रूपवत् अस्ति अत्र, किन्तु सप्तमी एकवचनम्. एवमेव गच्छति इत्यत्र सप्तमी एकवचनं गच्छति इति प्रथमपुरुष एकवचनं. भवान् गच्छति तादृशम् अस्ति, किन्तु प्रसङ्गम् अनुसृत्य एव वयं वक्तुं शक्नुमः अत्र प्रथमपुरुष एकवचनक्रियापदं वा साक्षात् अथवा अत्र शत्रन्तरूपं वा सप्तमी विभक्तिः वा इति तत्र वाक्यप्रयोगं दृष्ट्वा एव वयं वक्तुं शक्नुमः. अस्तु. अग्रे इदानीं स्त्रीलिङ्गरूपाणि दत्तानि. नित्यानन्द महोदय तत्र तृतीयाविभक्तिपर्यन्तं पठतु.
आं भगिनि. गच्छन्ति गच्छन्त्यो गच्छन्त्यः गच्छन्तीं गच्छन्त्योः गच्छन्तीः
गच्छन्तीः नदीः
गच्छन्तीः गच्छन्त्या गच्छन्तीभ्यां
गच्छन्तीभ्यां न नदी नदीशब्दस्य विभक्तिरूपाणि सम्यक् स्मरन्तु. सर्वत्र तवतु प्रत्यये अपि एतादृशमेव पठति पठितवती इति भवति खलु. पठितवती पठितवत्यौ पठितवत्यः पठितवतीं पठितवत्यौ पठितवतीः इति रूपाणि भवन्ति तत्र तवतु रूपाणि. अस्तु अग्रे सुकन्या भगिनी भवती पठतु चतुर्थी विभक्तिम् आरभ्य सप्तमी पर्यन्तम्. गच्छन्तीसु इति भवति. अस्तु इदानीम् अग्रे पुनः एकम् अन्यत् एकं रूपं तत्र लिख् धातोः दत्तम् अस्ति. सौम्या भगिनी तृतीयाविभक्तिपर्यन्तं वदतु लिख् धातोः विभक्तिरूपाणि तृतीयाविभक्तिरूपाणि पर्यन्तं वदतु.
लिखन्ति लिखन्त्यौ लिखन्त्यः लिखन्तीं लिखन्त्यौ लिखन्तीः लिखन्त्या
लिखन्तीभिः. विजि भगिनी वक्तुं शक्नोति वा चतुर्थी विभक्तिम् आरभ्य रूपाणि लिक् शब्दस्य स्त्रीलिङ्गरूपाणि सत्रन्तरूपाणि? अन्य केनापि शान्ति भगिनी वदतु. अस्तु एकं निमिषं शान्ति भगिनी. विजि भगिनी
पुनरेकवारं
लिक् धातुः शत्रन्त स्त्रीलिङ्गरूपाणि चतुर्थी विभक्तिम् आरभ्य वदतु. लिखन्तीभ्यं
लिखन्तीभ्यः
अनन्तरं पञ्चमी
लिखन्त्याः लिखन्तीभ्यां लिखन्ती दट् ऐ थिङ्क् षष्टि लिखन्त्याः लिखन्त्योः लिखन्तीनां लिखन्त्यां लिखन्त्योः लिखन्तीषु
लिखन्तीषु अस्तु उत्तमम् इदानीम् अग्रे शत्रन्तप्रत्ययन्तरूपाणि तत्र नपुंसकलिङ्गस्य तत्र केवलं सर्वत्र एतादृशमेव भवति केवलं प्रथमाविभक्तिः अपि च द्वितीयाविभक्तिरूपाणि एव समा तेषां रूपाणि समानानि भवन्ति तृतीयाविभक्ति आरभ्य पुल्लिङ्गवत्येव रूपाणि भवन्ति
एकप्रश्नमस्ति भगिनि भवत् शब्दः नदीशब्दः रूपाणि विभक्त्यां इन् न अस्ति भवत्याः
तत्र भवत् शब्दः सर्वनामशब्दः इति तत्र सर्वनामगणः अस्ति सर्वादीनि इति तत्र सर्वादीनि सर्वनामानि इति तत्र एकं सूत्रम् अस्ति सर्वादिगणः इति एकः गणः गणपाठः अस्ति सो लैक् धातुगणः फार् शब्दास् आल्सो दर् आर् गणास् अण्ड् ईच् गण इस् नेम्ड् आफ्टर् द फस्ट् शब्द आफ् दट् गण ओके सो सर्वादिगणः इति एकः गणः अस्ति आदि इत्युक्ते कः अर्थः प्रथमः इति अर्थः तत्र सर्व इति शब्दः तस्मिन् गणे सर्व इति शब्दः आदिमशब्दः अस्ति तस्मात् तस्य गणस्य नाम सर्वादिगणः इति भवत् शब्दः अपि तस्मिन् गणे एव अस्ति तेषां रूपाणि किञ्चित् भिन्नरीत्या तेषां कृते तु नियमाः भिन्नाः सूत्राणि भिन्नानि भवन्ति भवत् इति तत्र सर्वादिगणशब्दः अस्तु तस्य भवान् भवन्तौ भवन्तः इति रूपाणि भवति भवान् इति किञ्चित् दीर्घं भवति तत्र आकारः भवान् इति भवति यद्यपि तकारान्तशब्दः एवमेव तत्र भवती नकारः न दृश्यते तत्र भवती इति दीर्घं भवति स्त्रीलिङ्गस्य
अस्तु भगिनि
गच्छत् इत्यस्य गच्छत् इत्यस्य वा एते सर्वे तु शत्रन्तप्रत्ययाः तत्र भवत् शब्दः तु शत्रन्तप्र शब्दः न सर्वादिगणशब्दः सर्वादिगणशब्दः सो ईच् अण्ड् एव्री गण दे हेव् सर्टन् नम्बर् आफ् वर्ड्स् ऐ विल् नाट् से शब्दास् आफ्टर् दट् वेन् दि आड् सर्टन् थिङ्ग्स् अण्ड् देन् इट् टेक्स् अ विभक्ति फार्म् अण्ड् देन् actually that bhavat shabda also the actual shabda in that sarvadi gana is bhavatu it is bhavatu but after that ukarasya lopah we get bhavat iti shabda labhyate astu tasya vibhakti rupani bhavati bhavan bhavantau bhavantah iti so there are rules for each shabda that is for each gana I'm sorry for each gana the shabdas belonging to different gana there are sutrams have been written by maharshi okay so maharshi he did not come up with all these things again what was existing what in usage what was used by everyone at that period and what is seen in Vedas and other scriptures, granthas, based on that, what he did was he just made sutram so that it will be like a formula. It will be easier for people to follow. It was scattered all over. He just cataloged them and then made sutras for each and everything and then made formulas and put it in an order. That's all. He did not come up with any new idea. Okay, the only sutrams, whatever he wrote, those sutrams were written by Paninia Maharshi before him also there were grammarians, so he gives credit to those grammarians also. In his sutram itself he mentions those name of the grammarians. Okay, so before Paniniya Maharshi also there were grammarians. So what is seen in all the scriptures, granthas, everything. So in that also what happens, see again, he, it's very difficult to cover everything. So whatever he has missed in the sutram, so there are, you can see Vartikam, something called Vartikam. So the grammarians who came after Paniniya Maharishi, what they did, they found something that got missed in the sutram. So what they did was, they did not come up with a new sutram. Instead, they added, under the sutram, they added, this is also applicable. So they give reference. This is also applicable. So this is used here. Okay? So like that, it has, they have put it in a structured way. That's all. Otherwise, now, if Paniniya Maharshi and other grammarians, if they had not come up with all these rules and sutram, again, Sanskritam will also be lost.
Yes.
Okay? Adre abhyasaha asti. Atra tritiyaha abhyasaha asti. Kevalam kriyapadani santi. Pratama purusha ekavachana kriyapadani. Tadrishtva bhavantaha atra shatranta rupani trishulingeshu vadatu iti abhyasaha asti. Kramashaha kurmaha dasha kriyapadani santi. पठामः नित्यान् महोदय भवान् आरम्भं करोतु उदाहरणं पठित्वा वदतु
आं भगिनि पठति पठन् पुलिङ्गं पठन्ति स्त्रीलिङ्गं पठत् नपुंसकलिङ्गं नयति नयति नयन् 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 पुलिङ्ग नयन्
पुल्लिङ्ग स्त्रीलिङ्ग मास्तु केवलं वदतु
नयन् नयन्ति नयत्
नयत् अग्रे सौम्या भगिनी
इच्छति इच्छन् इच्छन्ति इच्छत्
इच्छत् सुकन्या भगिनी तिष्ठत् शान्ति भगिनी
खादन् खादन्ति खादत्
खादत् कृष्णन् महोदय
त्यजति त्यजन् त्यजन्ति त्यजत्
त्यजत् विजि भगिनी भवत्याः क्रियापदमस्ति पश्यति
पश्यन् पश्यन्तौ पश्यन्ति
न केवलं तत्र स्त्रीलिङ्ग नपुंसकलिङ्गरूपाणि एकवचनरूपाणि वदतु
ओ ओके पश्यन् इट् विल् बी पश्यन्ति पश्यन्त्यौ
पश्यन् पश्यन्ति पश्यत् केवलं त्रिषु लिङ्गेषु एकवचनरूपाणि तावदेव पश्यन् पश्यन्ति पश्यत् पश्यत्
पश्यत्
पश्यत् एव पश्यत् एव प्रातिपदिकं सर्वत्र पट् इति धातुः अत् इति शत्रन्तप्रत्ययस्य रूपं भवति पट् योगः अत् पठत् इति शब्दः लभ्यते तद् प्रातिपदिकं भवति तदनन्तरं स्त्रीलिङ्गपुल्लिङ्गनपुंसकलिङ्गरूपाणि इदानीं विशेषक्रियापदानि इति मञ्जूषायां कानिचन क्रियापदानि दत्तानि बहूनि सन्ति केवलम् अत्र दश वा द्वादश वा कति दत्तानि षट् नव द्वादशक्रियापदानि सन्ति अत्र द्वादशक्रियापदानि तत्र एतेषां रूपाणि भिन्नानि भवन्ति पश्यन्ति चेत् अत्र ददत् इति भवति एकवचनं ददाति इत्यस्य ददत् ददन् न पुल्लिङ्गे एव ददत्येव अस्तु ददत् ददति पुनः नपुंसकलिङ्गे ददत् इदानीं तत्र सुलभतया यदि भवन्तः स्मर्तुम् इच्छन्ति किं कुर्वन्तु तत्र इदानीं ददाति इति प्रथमपुरुष एकवचनक्रियापदमस्ति खलु अत्र ददाति इति ति इत्यस्मात् पूर्वं यदा अकारः नास्ति अकारं विहाय अन्यस्वराः भवन्ति चेत् तेषां शत्रन्तरूपाणि किञ्चित् भिन्नरीत्या भवन्ति इति स्मरन्तु तादृशस्मरणं कुर्वन्तु पश्यन्ति चेत् इदानीं ददाति इत्यत्र किं भवति ददाति ति तस्मात् पूर्वम् अन्तिमवर्णः कः आकारः अस्ति ददत् इति भवति इति एवं स्मरन्तु इदानीं बहूनि तत्रापि बहूनि सूत्राणि कार्याणि सन्ति इदानीं मास्तु तादृशचिन्तनं सूत्रस्य विषये मास्तु सुलभतया स्मर्तुं शक्यते एवं चिन्तयामः चेत् एवमेव बिभेति इत्यत्रापि बे ये इति अस्ति क्रियापदमस्ति बिभेति ति तस्मात् पूर्वं ये इति एकारः अस्ति बिभ्यत् इति भवति बिभ्यत् बिभ्यति बिभ्यत् इति नपुंसकलिङ्गरूपमपि पुल्लिङ्गवत्येव भवति तत्र करोति इत्यत्र कुर्वन् भिन्नं करोत् इति न भवति करोत् कुर्वन् इति भवति स्त्रीलिङ्गे कुर्वति इति भवति नकारः न भवति यथा गच्छन्ति पठन्ति इति स्त्रीलिङ्गरूपाणि भवति तादृशं न भवति एव एतेषां स्त्रीलिङ्गे नकारः न श्रूयते एव पुल्लिङ्गे अपि पश्यन्तु ददन् इति नास्ति ददत् इति अस्ति किञ्चित् भिन्नरीत्या तस्मात् कारणात् एव अत्र विशेषक्रियापदानि इति उक्तानि सर्वत्र पश्यन्तु शृणोति शक्नोति सर्वत्र ओकारः जानाति इत्यत्र आ अन्तिम ति इत्यस्मात् पूर्वम् आ इति अस्ति जानन् इति भवति जानत् इति न जानन् इति भवति अनन्तरं जानति इति जानन्ति इति न जानति इति स्त्रीलिङ्गरूपं भवति एवं किञ्चित् भिन्नरीत्या भवति तस्मात् विशेषणक्रियापदानि अभ्यासेन प्राप्तुं शक्यते तत्र चिन्ता मा कुर्वन्तु इदानीम् अग्रे वाक्यानि सन्ति एतेषु वाक्येषु शत्रन्तप्रत्ययानां रूपाणां प्रयोगः विभिन्नासु विभक्तिषु कृतः अस्ति विभिन्नासु विभक्तिषु तत्र केवलम् एकवचनविभक्ति एकवचनरूपाणि न अत्र विभिन्नासु विभक्तिषु कृतः अस्ति तानि सावधानं पठत अवगच्छत च इति पठामः नित्यानन्द महोदय वाक्यद्वयं पठतु
अहं विद्यालयं गच्छन्तं छात्रं मार्गं पृच्छामि
किं तत्र अहं विद्यालयं गच्छन्तं छात्रं कीदृशं छात्रं किं कुर्वन्तं छात्रं गच्छन्तं छात्रं प्रश्नमपि पश्यन्तु किं कुर्वन्तं तत्रापि कुर्वन् इति तत्र कुर्वन् इति प्रथमाविभक्ति एकवचनं कुर्वन्तम् इति द्वितीयाविभक्ति एकवचनं किं कुर्वन्तं गच्छन्तं छात्रं विशेषणं भवति छात्रम् इत्यस्य विशेषणं कुत्र गच्छन्तं विद्यालयं गच्छन्तं छात्रं किं पृष्टवान् मार्गं पृष्टवान् इति तत्र भवति अग्रिमवाक्यम्
रमेशः ओदनं पचन् पचन्तीं भगिनीं प्रशंसति
प्रशंसति पचन्तीं भगिनीं प्रशंसति अग्रे सौम्या भगिनी
ओदनम् इत्युक्ते किं भगिनि ओदनम्
ओदनम् इत्युक्ते तत्र रैस् बायिल् कुकिङ्ग् द रैस् तदेव
शिक्षिका क्रीडितः बालकान् आह्वयति
अत्र पश्यन्तु क्रीडितः क्रीडन् क्रीडन्तौ क्रीडन्तः प्रथमा विभक्तिः किन्तु अत्र किं दत्तमस्ति
द्वितीया विभक्ति
द्वितीया किं वचनं
बहुवचनं
बहुवचनं तत्र बालकान् इति विशेष्यम् अस्ति तस्य विशेषणं भवति क्रीडतः बालकान् इति अग्रे सुकन्या अग्रिमवाक्यमपि पठतु सौम्या भगिनी
यात्रिकाः जले तरन्तीः नौकाः पश्यन्ति
यात्रिकाः अत्र किञ्चित् प्रश्नः उदेति यात्रिकाः इति केवलं दत्तम् अस्ति चेत् पुल्लिङ्गे यात्रिकाः यात्रिकः इत्यस्य बहुवचनं यात्रिकाः वा अथवा यात्रिका इति आकारान्तस्त्रीलिङ्गपदस्य बहुवचनं यात्रिकाः वा इति तत्र भ्रमः जायते जायते वा किन्तु अत्र ऊहामहे कथम् नौकाः तु अत्र नौकाः इति न तरन्तीः तरन्तीः इति अस्ति तद्दृष्ट्वा अस्माभिः वक्तुं शक्यते अत्र यात्रिकाः इति पदं स्त्रीलिङ्गे द्वितीया विभक्तौ अस्ति इति वक्तुं शक्यते अत्र न मम दोषः क्षम्यतां यात्रिकाः इति पुल्लिङ्गे एव अस्ति तरन्तीः नौकाः इत्यस्य विशेषणम् अस्ति मम दोषः तरन्तिः इति नौकाः इत्यस्य विशेषणं भवति मम दोषः एवं यात्रिकाः इत्यस्य स्त्रीलिङ्गे अपि भवितुम् अर्हति यात्रिका इत्यस्य स्त्रीलिङ्गे बहुवचने यात्रिकाः इति परन्तु अत्र यात्रिकाः इति पुल्लिङ्गे बहुवचने एव अस्ति अत्र नौकाः इत्यस्य विशेषणं भवति तरन्तीः इति अग्रे कस्याः पर्यायः सुकन्या भगिनी अग्रिमवाक्यं
विद्यालयं गच्छन् छात्रया गीतं गीयते
अत्र पश्यतु कर्मणि प्रयोगे अस्ति गच्छन्त्या छात्रया गीतं गीयते इति कर्मणि प्रयोगः किन्तु शत्रन्तरूपेण तत्र गच्छन् तत्र छात्रया इति अस्ति छात्रया गीतं गीयते तत्र कीदृश्या छात्रया गच्छन्त्या छात्रया गीतं गीयते पूर्वतनवाक्यं स्वीकुर्मः माता क्रीडिता बालकेन सह सम्भाषणं करोति कर्मणि रूपं वदतु सुकन्या वेणि पञ्चमवाक्यस्य कर्मणि प्रयोगः किमर्थं मात्रा मात्रा क्रीडिता बालकेन एव भवति तत्र मात्रा क्रीडिता बालकेन सम्भाषणं क्रियते तावदेव क्रियते इति भवति अग्रे शान्ति भगिनी अन्म्यूट् कृत्वा पठतु शान्तिभगिनी.
अग्रजग अस्ति बालकाय मोदकं ददाति. भूचक देवं प्रणमद्यभ्यः भक्तेभ्यः प्रसादं वितरति.
वितरति पूजकः देवं प्रणमद्भ्यः भक्तेभ्यः प्रसादं वितरति. तत्र का विभक्तिः?
चतुर्थी.
दादातु तत्र प्रसादम् इति कर्मपदं, प्रणमद्भ्यः भक्तेभ्यः इति चतुर्थी विभक्तिः. प्रणमन् इति भवति, नमन् इति भवति. नमु धातुः शत्रन्तप्रत्ययस्य योग शत्रुप्रत्ययस्य योजनेन नमत् इति प्रातिपदिकं, नमन् नमन्तौ नमन्तः रूपाणि भवन्ति. तत्र नमद्भ्यः इति भवति. अत्र प्र इति उपसर्गः अस्ति, तत्र प्रणमद् इति भवति. प्रणमत् इति रूपं सिद्ध्यते, तस्य चतुर्थी बहुवचनं प्रणमद्भ्यः इति भवति. अनन्तरम् अग्रिमवाक्यम्, अग्रजः हस्ते बालकाय मोदकं, हसते बालकाय मोदकं ददाति. कीदृशाय तत्र हसते बालकाय, कीदृशाय बालकाय हसते बालकाय. तत्र हसते, हसत् शब्दस्य चतुर्थी एकवचनं हसते इति भवति. इत्युक्ते कः अर्थः? हि इस् लाफिङ्ग् इति अर्थः. द बाय् हू इस् लाफिङ्ग् टु दट् बाय् हि इस् गिविङ्ग् संथिङ्ग् मोदकम् इति अर्थः. सो अत्र द यङ्गर् ब्रदर् गिव्स् मोदकं टु द बाय् हू इस् लाफिङ्ग् इति अर्थः भवति. तत्र विशेषणं बालकाय इति चतुर्थी, तस्य विशेषणं भवति हसते बालकाय इति. कृष्णन् महोदय अग्रे.
भवती लिखन्तीभ्यः छात्राभ्यः दुग्धं ददातु. लिखते गोविन्दाय लेखनी रोचते.
लिखते गोविन्दाय लेखनी रोचते. अत्र यत्र कुत्रापि दीर्घं भवति सर्वे किञ्चित् उच्चारणं सम्यक् कुर्वन्तु. भवती लिखन्तीभ्यः छात्राभ्यः दुग्धं ददातु. भवती इति कोऽपि वदति, लिखन्तीभ्यः, अत्रापि का विभक्तिः? लिखन्तीभ्यः छात्राभ्यः इत्यत्र का विभक्तिः?
चतुर्थी एव भगिनि.
चतुर्थी एव दानक्रिया. दुग्धम् इति कर्मपदं, पुनः लिखते गोविन्दाय इत्यत्र अपि चतुर्थी एव भवति. अस्तु,
रोचते
तत्रापि रोचते इत्यत्र रोचते प्रयोगेन. अग्रे अपि नमः प्रयोगः अस्ति, तस्मात् पुनः तत्रापि चतुर्थी एव. नमः प्रयोगे चतुर्थी विभक्तिः, तस्मात् एकदशवाक्ये अपि तत्र बोधयद्भ्यः गुरुभ्यः नमः इति भवति. अस्तु, पुनः पठामः अवशिष्टानि वाक्यानि सर्वाणि पठामः. अग्रिमपुटे अभ्यासः अस्ति, कृत्वा आगच्छन्तु गृहकार्यरूपेण. नित्यानन्द महोदय, भवान् एकमेकं वाक्यं पठतु इदानीं. सैनिकः
सैनिकः धावतः अश्वात् पतति.
अत्र धावतः इत्यत्र का विभक्तिः?
षष्टि.
पञ्चमी. षष्टि कथं भवति भोः? तत्र अश्वात् इति पञ्चमी विभक्तिः. कीदृशात् अश्वात्? तत्र धावतः अश्वात् इति पञ्चमी. सौम्या वैनी.
चोराः.
प्रश्नः अस्ति वा
भगिनि? अग्रजः तन् बालकाय मोदकं ददाति साधु वा?
किं महोदय?
अग्रजः हसन् बालकाय मोदकं ददाति.
न, तत्र अग्रजः हसन् इत्यत्र अग्रजस्य विशेषणं भवति.
Yeah, that's exactly, so it's correct, no?
Correct. Kintu, atratu agrajah hasan balakaya modakam dadati. So, the agrajah himself is smiling and he is giving, distributing modakam iti artaha bhavati.
Okay.
Atra, agrajasya visheshanam bhavati. Agrajapadasya visheshanam bhavati hasan iti. Kimartam agrajah iti pratama vibhakta varti, tasya visheshanam hasan iti bhavati. अस्तु शुद्धमेव अग्रे सौम्यतै
चोराः अनुदावद्भ्यः आरक्षेभ्यः
आरक्षकेभ्यः
आरक्षकेभ्यः बिभ्यति
तत्र पुनः का विभक्तिः अत्र
पञ्चमी भगिनि
पञ्चमी एव किमर्थम्
बिभ्यति
बिभ्यति प्रयोगे पञ्चमी अग्रे सुकन्या भगिनी
कुत्र अत्र आगच्छन्त्याः शाकविक्रेत्र्याः कर्कटीं क्रीणातु
क्रीणातु
मीनिङ्ग् भगिनि
आगच्छन्त्याः भवती वदतु
शाकविक्रेत the one buying
का विभक्ति इति वदतु
षष्ठी विभक्ति
न पञ्चमी
पञ्चमी बहुवचनं पञ्चमी बहुवचनं
बहुवचनं न एकवचनमेव भवति वेंडर वेजिटेबल वेंडर फेमिनिन जेंडर दैट्स ऑल फ्रॉम हर इति अर्थः कर्कटीं क्रीणातु कर्कटी इत्युक्ते अहं चिन्तयामि कुक्यम्बर् इति चिन्तयामि अत्र क्रीणातु
भगिनि कर्कट्या कर्कटलग्नम् अपि एक शब्दमस्ति न भगिनि कर्कटलग्नं क्राब्
कर्कटी भवितुम् अर्हति कर्कटी क्राब् अस्तु तत् शाक इति भवति तस्मात् अहं चिन्तयामि एकं निमिषं कर्कटः इति अस्ति किन्तु अत्र एषा तु शाकानां विक्रयणमेव करोति एषा तस्मात् चिन्तयामि अर्थः भिन्नः
दूर्वारुका इस् कुकम्ब
दूर्वारुकं Karkati, female crab, a kind of cucumber. Dasmati atra cucumber eva. Kimartam ityukte esha tu shakanam vikrayanam eva karoti. शाकविक्रयणं करोति एषा तस्मात् अत्र क्यूम्बर् इत्येव स्वीकुर्मः अस्तु कस्याः पर्यायः इदानीं शान्तिभगिनी भवत्याः पर्यायः
एषः विद्यालयं गच्छतः बालकस्य स्यूतः अस्ति
षष्टि विभक्तिः कृष्णन् महोदय
सङ्गीतशालां गच्छन्तीनां बालिकानां हस्ते वीणाः सन्ति
अत्र का विभक्तिः सुलभः एव
बालिकानां हस्ते वीणाः सङ्गीतशालां
का विभक्तिः अन्ते किम् अस्ति
षष्टि
षष्टि बहुवचनं
षष्टि बहुवचनं
बालिका बालिकानां षष्टि बहुवचनं बालिकानाम् इति बहुवचनम् अत्र कीदृशीनां बालुका बालिकानाम् अत्र गच्छन्तीनां बालिकानाम् इति गच्छन्तीनाम् इति तदपि षष्टि बहुवचनम् तेषां हस्ते तासां हस्ते क्षम्यतां तासां हस्ते वीणाः सन्ति इति भवति. अस्तु अग्रे पुनः वदतां न्यायालये वदताम् अधिकवक्तॄणां युतकानि कृष्णानि वर्तन्ते इति. युतकानि इत्युक्ते अधिकवक्तृ इत्युक्ते कः अर्थः?
मोस्ट्लि सेड् अधिकम् अधिवक्तॄणाम्
अत्र नथिङ्ग् बट् लायर्. न्यायालये वदतां वदताम् इति तत्रापि षष्टि वदताम् अधिवक्तॄणां वक्ता केवलं वक्तृ तत्र अधिवक्तृ इत्युक्ते लायर् अधिवक्ता इति अर्थः तत्र अधिवक्तृ इति प्रातिपदिकं तत्र अधिवक्ता अधिवक्तारौ अधिवक्तारः इति रूपाणि भवन्ति तत्र दाता दाता दातारौ दातारः दातृशब्दवत् एवं भवति अधिवक्तॄणां युतकानि कृष्णानि वर्तन्ते इत्युक्ते कः अर्थः?
ओ लायर्स् ड्रेस् आर् ब्लाक् इन् कलर्
तावदेव न्यायालये युतकानि इत्युक्ते शर्ट्. अस्तु अग्रे कस्य पर्यायः अनन्तरं पठत्सु बालकेषु रमेशः चतुरः अस्ति का विभक्तिः अत्र? सप्तमी बहुवचनं सप्तमी विभक्तिः बहुवचनं बालकेषु तद्दृष्ट्वा एव वयं वक्तुं शक्नुमः तत्र पठत्सु इति बहुवचनम् इति तस्य विशेषणं भवति. एवमेव धेनुषु अत्र पश्यतु धेनुषु इति स्त्रीलिङ्गबहुवचनं कीदृशीषु धेनुषु? चरन्तीषु धेनुषु कपिला अधिकं दुग्धं ददाति. कपिला इति कपिलवर्णधेनुः भवितुम् अर्हति अथवा कपिला इति कश्चन वर्गः एव अस्ति तत्र दट् इस् अ ब्रीड् काल् कपिल पशु कपिलधेनु there are different breeds right indigenous cows one among them is kapila and it's very special kapila cows milk is very special then it is used the ghee is used in especially the kapila cows ghee is used in ayurveda adhikataya शिशुः दुग्धं पाययन्त्यां मातरि स्निह्यति. अत्र पश्यन्तु स्निह्यति प्रयोगे सप्तमी विभक्ति तस्मात् अत्र पाययन्त्यां मातरि इति सप्तमी विभक्तिप्रयोगः. सो यु हाव् टु रिमेम्बर् आल् दीस् रूल्स् आफ् विभक्ति आल्सो एस् वेल् एस् विभक्ति फार्म्स् एण्ड् द रूल्स् पर्टेन् टु दट् विभक्तिस् then it is namaha rochate vidyati snihyati grahana kriya bhavati chet saptami vibhaktihi etani sarvan etani sarvan niyaman manasi nidhaya atra vaktavya astu agrima pute abhyasah asti chatvarah abhyasah chaturthah abhyasah bhavantah kurvantu krutva agacchantu evam पञ्चममपि चतुर्थं पञ्चमं चतुर्थाभ्यासः पञ्चम अभ्यासः अभ्यासद्वयमपि कृत्वा आगच्छन्तु. अग्रिमसप्ताहे वयम् एतं पाठं समापयामः. किन्तु पठित्वा आगच्छन्तु अभ्यासमपि गृहकार्यमपि कृत्वा आगच्छन्तु. प्रश्नाः सन्ति चेत् अहं समाधानं वक्ष्यामि वर्गे एव. अस्तु शान्तिम प्रश्नाः सन्ति चेत् पृच्छन्तु संशयः वा प्रश्नः वा अस्ति चेत् पृच्छन्तु समाधानं वक्ष्यामि अहम्. कोऽपि प्रश्नः अस्ति वा? एवम् एतानि वाक्यानि एव स्वीकुर्वन्तु अत्र किञ्चित् पुस्तके यानि वाक्यानि अभ्यासार्थं दत्तानि अथवा पूर्वतनपुटे इदानीं विंशतिः वाक्यानि सन्ति खलु, यानि वाक्यानि वयं पठितवन्तः तानि वाक्यानि एव स्वीकृत्य किञ्चित् भिन्नरीत्या अभ्यासं कुर्वन्तु, चिन्तनं कुर्वन्तु. इदानीं कर्मणि अत्र कर्मणि प्रयोगं कृत्वा अहं किञ्चित् अभ्यासं करोमि, अत्र कर्तुं शक्यते वा इति तादृशचिन्तनं कुर्वन्तु. अस्तु, शान्तिमन्त्रमुक्त्वा विरमामः. शान्तिमन्त्रं सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः,
शान्ति शान्ति शान्ति. श्रीहरिः नमः, हरिः.
धन्यवादः,
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 धन्यवादः.